ಶ್ರೀ ಆದಿನಾಥಾಯ ನಮೋಸ್ತು ತಸ್ಮೈ ಏನೋಪದಿಷ್ಟಾ ಹಠ ಯೋಗ ವಿದ್ಯಾ ವಿಭ್ರಾಜತೆ ಪ್ರೋನ್ನತ ರಾಜಯೋಗಂ ಆರೋಢು ನಿಚ್ಚೋರತಿರೋಹಿಣೀವ. ಅಧುನಾ ದ್ವಿತೀಯಾಧ್ಯಾಯಸ್ಯ ಪಂಚತ್ರಿಂಶತ್ತಮಃ ಶ್ಲೋಕ. ಅತ್ರ ಷಟ್ಸು ಕ್ರಿಯಾಸು ಪಂಚಕ್ರಿಯಾಃ ತಾವತ್ ವಿವೃತಾಃ. ಅಧುನಾ ಷಷ್ಠೀ ಕ್ರಿಯಾ ಅಧುನಾ ವಿವ್ರಿಯತೆ. ಹಸ್ತ್ರಾವಲ್ಲೋಹಕಾರಸ್ಯ ರೇಚ ಪೂರೌ ಸ ಸಂಭ್ರಮೌ ಕಪಾಲಭಾತಿರ್ವಿಖ್ಯಾತ ಕಫದೋಷ ವಿಶೋಷಣಿ.
ವಸ್ತ್ರಾವಲ್ಲೋಹಕಾರಸ್ಯ ರೇಚ ಪೂರೌ ಸ ಸಂಭ್ರಮೌ ಕಪಾಲಭಾತಿರ್ವಿಖ್ಯಾತ ಕಫದೋಷ ವಿಶೋಷಣಿ. ಭಸ್ತ್ರಾವತ್ ಲೋಹಕಾರಸ್ಯ ರೇಚ ಪೂರೌ ಸ ಸಂಭ್ರಮೌ ಕಪಾಲಭಾತಿ ವಿಖ್ಯಾತ ಕಫದೋಷ ವಿಶೋಷಣಿ.
ವಿಶೋಷಣಿ ಸಮ್ಯಕ್. ಅಧುನಾ ಕಪಾಲಭಾತಿ ಕ್ರಿಯಾ ಉಚ್ಯತೆ. ಲೋಹಕಾರಸ್ಯ ಭಸ್ತ್ರಾವತ್ ರೇಚ ಪೂರೌ ಸ ಸಂಭ್ರಮೌ. ಯದಾ ಭವತಃ ಅಥವಾ ಯದಾ ರೇಚಪೂರಯೋಃ ಸಸಂಭ್ರಮಂ ಅನುಷ್ಠಾನಂ ಕ್ರಿಯತೆ ಲೋಹಕಾರಸ್ಯ ಭಸ್ತ್ರಾವತ್ ತಾ ಕ್ರಿಯಾ ಕಪಾಲಭಾತಿಃ ಇತಿ ವಿಖ್ಯಾತ ಪ್ರಸಿದ್ಧಾ ಭವತಿ. ಇದಾನೀಂ ವೇಗೇನ ವಾಯೋಃ ಗ್ರಹಣಂ ಶೀಘ್ರಂ ಪರಿತ್ಯಾಗಃ ಕಪಾಲಭಾತಿಃ ಭವತಿ. ನಾಸಾಪುಟಾಭ್ಯಾಮೇವ ನಾಸಾಪುಟಾಭ್ಯಾಂ ವಿಶಿಷ್ಯ ರೇಚಕ ಪೂರಕ ಅನುಷ್ಠಾನಂ ವೇಗೇನ ಯದಾ ಕ್ರಿಯತೆ ತದಾ ಕಪಾಲಭಾತಿ ಇತಿ ಉಚ್ಯತೆ. ತದಪಿ ಕಥಂ ಕ್ರಿಯತೆ ಇದೆ ಉದಾಹರಣಾರ್ಥಂ ಸ್ಫೋರಣಾರ್ಥಂ ಉದಾಹರಣಂ ಮನಸಿ ಸಮ್ಯಕ್ ಆನೇತುಂ ತತ್ರ ಭಸ್ತ್ರಾವತ್ ಇತಿ ಉದಾಹರಣಂ ದತ್ತಂ ತತ್ರ ವಿವರಣಂ ದತ್ತಂ. ಬೆಲೋಸ್ ಇತಿ ಉಚ್ಯತೆ ನಾಮ ಯದಾ ಲೋಹಕಾರಃ ಲೋಹಕಾರೋ ನಾಮ ಬ್ಲಾಕ್ ಸ್ಮಿತ್ ಯಹ ಅಯಃ ಕಾರ್ಯಂ ಕರೋತಿ ಅಯಸ್ಸಂಬದ್ಧ ಶಸ್ತ್ರಾಧಿಕಂ ಅಥವಾ ಫಲಾಧಿಕಂ ಸಹ ನಿರ್ಮಾತಿ ತದಾ ಅಯಸಃ ಸಂಸ್ಕರಣಂ ಕರ್ತವ್ಯಂ ನಾಮ ನಾನಾ ರೂಪ ಪ್ರಾಪ್ತಿಃ ಅಯಸಃ ಭವೇತ್. ತದರ್ಥಂ ತತ್ರ ಅಗ್ನಿಃ ಅಪಿ ನಿಕಟೆ ಏವ ಭವೇತ್ ಲೋಹಕಾರಸ್ಯ. ಅಗ್ನೇಃ ಅಗ್ನಿಃ ತತ್ರ ಜ್ವಲತಿ ಪರಂತು ತಸ್ಯ ಸಮ್ಯಕ್ ಉದ್ದೀಪನಾರ್ಥಂ ತಸ್ಯ ಚರ್ಮಮಯಿ ನಮಗೆ ಚರ್ಮಮಯಂ ಕಿಂಚಿತ್ ಉಪಕರಣಂ ಭವತಿ ಲೋಹಕಾರಸ್ಯ. ಯಸ್ಯ ಸಹ ತದ್ ಯದಾ ಪ್ರೆಸ್ ಕರೋತಿ ತದ ತತಃ ಏರ್ ಬ್ಯಾಗ್ ಇವ ಭವತಿ ತತ್ ಲೆದರ್ ಏರ್ ಬ್ಯಾಗ್ ತಸ್ಯ ಏವಂ ಸಹ ಪ್ರೆಸ್ ಕರೋತಿ ಚೇತ್ ತತಃ ವಾಯುಃ ವೇಗೇನ ಬಹಿರಾಗಚ್ಚತಿ. ವಾಯು ತತ್ರ ಅಗ್ನಿಸ್ಪರ್ಶಂ ಪ್ರಾಪ್ಯ ತತ್ರ ಅಗ್ನಿಂ ಉದ್ದೀಪಯತಿ. ಸೊ ತದ್ ವೇಗೇನ ವಾಯೋ ಅಂತಃ ಸ್ವೀಕರಣಂ ಬಹಿಸ್ತ್ಯಾಗ ಅಂತಃ ಸ್ವೀಕರಣಂ ಬಹಿಸ್ತ್ಯಾಗ ತದೇವ ಭಸ್ತ್ರಾಯಃ ಕಾರ್ಯ. ನಮ್ಮ ತತ್ರ ಚಿತ್ರಾದಿಕಂ ದ್ರಷ್ಟುಂ ಶಕ್ಯತೆ ಅಂತರ್ಜಾಲಾದಿಷು. ಓ ವೇಗೇನ ರೇಚಪೂರಕಯೋಃ ಅನುಷ್ಠಾನಂ ತತ್ ಕಪಾಲಭಾತಿ ಇತಿ ಭವತಿ. ಕಿಂ ಭವತಿ ತೇನ ಕಫ ದೋಷ ವಿಶೋಷಣಿ. ನಮ ಯತ್ರ ಯತ್ರ ನಮ್ಮ ಶಿರೋಭಾಗೆ ಯತ್ರ ಯತ್ರ ಕಫಸ್ಯ ಸಂಗ್ರಹಃ ಭವತಿ ಕಫಸ್ಯ ನಾಶಃ ತೇನ ಭವತಿ ಇತಿ ಕಫದೋಷಸ್ಯ ನಿವಾರಣಂ ತೇನ ಭವತಿ ಇತ್ಯರ್ಥ. ತತ್ರ ವಿಶಿಷ್ಯ ಆಯುರ್ವೇದ ಗ್ರಂಥೇಷು ಕೇವಲಂ ತತ್ರ ವಿಂಶತಿ ಪ್ರಕಾರಕಾಃ ಕಫದೋಷಾಃ ಭವಂತಿ ಇತಿ. ಕೇವಲಂ ಮುಖಾತ್ ಕಫಸ್ಯ ನಿಸ್ಸಾರಣಂ ಇತಿ ನ ಕಫ ಸಂಬದ್ಧಾಃ ವಿಂಶತಿ ಪ್ರಕಾರಕಾಃ ದೋಷಾಃ ಕಪಾಲಭಾತಿ ಕ್ರಿಯಯಾ ನಿವಾರ್ಯಂತೆ ಇತಿ. ಪರಂತು ಅಸ್ಯಾ ಕ್ರಿಯಾಯಾಃ ಅನುಷ್ಠಾನ ಸಮಯೇ ತತ್ರ ಕಾಂಟ್ರಾ ಇಂಡಿಕೇಶನ್ಸ್ ಇತಿ ವದಂತಿ. ಕೈಹಿ ಕೈಹಿ ನ ಕರಣೀಯಂ ಅಂಡರ್ ವಾಟ್ ಕಂಡೀಷನ್ಸ್ ದೀಸ್ ಆರ್ ಟು ಬಿ ನಾಟ್ ಪ್ರಾಕ್ಟಿಸ್ಡ್ ಇತಿ ಕಾಚಿತ್ ಮಹತಿ ಆವಲಿಹಿ ಅಸ್ತಿ. ಯಸ್ಯ ನಾಮ ಇಯಂ ಗ್ರೀವಾ ವೇದನಾ ಅಸ್ತಿ, ಅನಂತರಂ ಏವಂ ನೇತ್ರೆ ಸಮಸ್ಯಾ ಅಸ್ತಿ, ಅನಂತರಂ ಉದರ ಸಮಸ್ಯಾ ಅಸ್ತಿ ಇತ್ಯೇವಂ ನಾನಾ ಪ್ರಕಾರ. ಅನಂತರಂ ಯಸ್ಯ ಬ್ಲಡ್ ಪ್ರೆಷರ್ समस्या अस्ति, एवं तादृश नानाविधसमस्यापीडिताः एतत् न कुर्युः, क्रियते चेत् समस्या अधिका भविष्यति. तस्मात् काण्ट्रा इण्डिकेशन् सर्वं यस्य नास्ति, यस्य यः सहजस्थितौ अस्ति सः इमां क्रियां कृत्वा कफदोषस्य निवारणं प्राप्तुमर्हति. एषा षष्ठी क्रिया. अस्तु, अग्रिमश्लोकः. षट्कर्म निर्गतस्थौल्यकफदोषमलादिकः प्राणायामं ततः कुर्यात् अनायासेन सिध्यति.
षट्कर्म निर्गतस्थौल्यकफदोषमलादिकः प्राणायामं ततः कुर्यादनायासेन सिध्यति. षट्कर्म निर्गतस्थौल्यकफदोषमलादिकः प्राणायामं ततः कुर्यात् अनायासेन सिध्यति.
सरलमेव, तत्र सर्वस्यापि सङ्ग्रहः अयं. षट्कर्म निर्गतस्थौल्यकफदोष मलादिकः, यः षट्कर्माणि कृत्वा, षट्कर्म निर्गत नाम षट्कर्मानुष्ठानेन निर्गताः अनेके दोषाः, अनेकाः समस्याः कीदृश्यः इति चेत् स्थौल्यं, स्थूलता, अनन्तरं कफदोषाः. कफदोषाः पूर्वत्र उक्ताः, विंशतिप्रकारकाः कफदोषाः भवन्ति. अनन्तरं मलादिकं, नाडिषु मलसङ्ग्रहः भवति. एवं यथा कफसमस्या आदिशब्देन किं ग्राह्यम् इति चेत् पित्त पातादिसमस्या अपि ग्राह्या इति. अतः एवं षट्कर्मानुष्ठानेन यस्य यस्मात् साधकात् स्थौल्य कफदोष मलादिकसमस्याः निर्गताः, तादृशः साधकः षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः, तादृशः अनुष्ठाता अधुना किं कुर्यात्? प्राणायामं ततः कुर्यात्. ततः परं सः प्राणायामे प्रवृत्तो भवेत्, तन्नाम नाडीशोधनं तेन कर्तुं शक्यते. अनायासेन सिद्ध्यति. अधुना नाडीशोधनस्य अन्यविध कुम्भकाः ये उच्यन्ते, तेषामनुष्ठानेन किं भवति इति चेत् अनायासेन सिद्ध्यति. झटित्येव तत्र फलं सिद्ध्यति. किं सिद्ध्यति? फलं शीघ्रमेव सिद्ध्यति. बहुकाल अनुष्ठानस्य अपेक्षा नास्ति. यदि शरीरात् इमे दोषाः निवारिताः षड्भिः एभिः पूर्वोक्तैः कर्मभिः. अग्रे गच्छामः. प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति आचार्याणां तु केषाञ्चित् अन्यत् कर्म न सम्मतम्.
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति आचार्याणां तु केषाञ्चिदन्यत् कर्म न सम्मतम्. प्राणायामैः एव सर्वे प्रशुष्यन्ति मलाः इति आचार्याणां तु केषाञ्चित् अन्यत् कर्म न सम्मतम्.
अयमेकः अत्यन्तं संस्मर्तव्यः विचारः अत्र उच्यते. प्राणायामैरेव सर्वे मलाः प्रशुष्यन्ति. प्राणायामानुष्ठानद्वारा एव, इदानीं पूर्वत्र उक्तं किल, स्थौल्य कफदोष मलादिकम् एतादृशं यद्यस्ति प्राणायामस्य अनुष्ठाने क्लेशः भवति, तन्निवारयितुं पूर्वत्र किम् उपन्यस्तम्? षट्कर्माणि उक्तानि. अनिवार्यतया षट्कर्मद्वारा एव येषां मलानां शुद्धिः वा इति पृष्टे सति, केचन आचार्याः केषाञ्चित् आचार्याणां मते प्राणायामः एव मलानां शुद्धीकरणे समर्थः भवति इति. अन्यत् कर्म न सम्मतं. धौतिः, वस्तिः, नेतिः, त्राटकं, नौलिकं, कपालभाति इत्यादिकं न कर्तव्यमेव, न अङ्गीक्रियते कश्चित् आचार्यैः. एवं मतद्वयमस्ति. अतः शरीरात् मलशोधनार्थं मतद्वयं, केचन षट्कर्मानुष्ठानं कुर्वन्ति मलशुद्धिं कृत्वा, अनन्तरं प्राणायामकुम्भकादि अभ्यासे प्रवृत्ताः भवन्ति. अपरे जनाः साक्षात् अन्यविध गौणप्राणायामानुष्ठानद्वारा किं कुर्वन्ति? शरीरशुद्धिं प्राप्य, मलशुद्धिं प्राप्य, अग्रे गाढकर प्राणायामानां प्रगतानां प्रौढानां प्राणायामानां अनुष्ठाने रताः भवन्ति। इदानीम् आचार्याणां च केषाञ्चित् इत्युक्तं किल, के ते आचार्याः, येषां मते षट्कर्मणाम् अङ्गीकारः नास्ति इति चेत् याज्ञवल्क्यादीनाम् इति उल्लेखः अत्र व्याख्याने दीयते। तत्र योगयाज्ञवल्क्यः इति एकः ग्रन्थः अस्ति, तस्मिन्नपि एवमेव हठाभ्यासाः अनेके उच्यन्ते। अत्र षट्कर्माणि नोपन्यस्तानि, अतः ते सर्वेपि प्राणायामद्वारा एव किं कुर्वन्ति, तत्र अनुलोमप्राणायामः, विलोमप्राणायामः इत्यादि प्राणायामाः सन्ति। तैः प्राणायामेरेव अग्रे अपि दृश्यते, अष्टविधकुम्भकाः उच्यन्ते। तेषु पञ्चकुम्भकाः किं कुर्वन्ति इति चेत् वातपित्तकफादिदोषाणां निवारकाः एव। अग्रे भस्त्रिका इति प्राणायामः भवति, दोषत्रयस्यापि समताम् आपादयति। तस्मात् प्राणायामद्वारा एव मलशुद्धिः भवितुमर्हति। पुनः इदानीं नासिकायां जलप्रवेशः, नासिकायां किं तत्र सूत्रस्य प्रवेशः, वस्त्राणां गिलनम्, अनन्तरं तत्र इदं नौलिक्रियादिकमस्ति किल, यत्र पुनः गुदद्वारा जलस्य प्रवेशः, निष्कासनम्, एतत् सर्वं सम्यक् न क्रियते चेत् किं भवति इति चेत् नानाविधरोगाणाम् उद्भवस्य सम्भावना अस्ति। अवगम्यते वा? जागरूकतया नियमपालनपुरस्सरं यदि न अनुष्ठीयते महान् क्लेशः। तस्मात् नाम कुत्रचित् अन्तः प्रविष्टं जलम् अथवा अन्तः गिलितं वस्त्रं बहिर्नागच्छति चेत् किं भवति? इदानीम् अधुना तु सर्जरी इत्यादि व्यवस्था अस्ति, तत्र प्रगतिः अस्ति, शस्त्रक्रिया शल्यक्रियायाः प्रगतिः अस्ति, अतः यत्किमपि भवति किञ्चित् समाधातुं शक्यमित्यस्ति। नासिकायाम् इदानीं जलं पूर्यते, नाम नेतिक्रियां वयं पश्यामः, तत् जलम् इतरेषु द्वारेषु प्रसृतं चेत् क्लेशः। एवं समस्यानां निवारणार्थं प्राणायामाः एव भवितुमर्हन्ति इति। अतः अहं यत्र नाम कृष्णमाचार्यसम्प्रदाये अपि कथमस्ति इति चेत् षट्कर्माणि नानुष्ठीयन्ते, केवलं प्राणायामाः एव, नानाविधप्राणायामाः, किञ्चित् तोणरीत्या दीयते इति। कृष्णमाचार्याणामपि तदेव मत, ते तन्न जानन्ति इति न, सम्यक् कुर्वन्ति, सम्यक् जानन्ति कृष्णमाचार्याः, तेषां काले ते एव प्रमुखाः योगे, परन्तु स्वशिष्येभ्यः इदं ते नोपादिशन्, न कर्तव्यं षट्कर्माणि, न कर्तव्यानि, न पाठनीयानि इति तेषां मतम्। अतः अन्यत् कर्म न अभिमतम् इति तत्र आचार्यशब्दः प्रयुक्तः अस्ति। तत्र को विशेषः आचार्यशब्दस्य? तत्र कः आचार्यः भवति इति चेत् यः शास्त्राणि चित्वा चित्वा पाठयति, सङ्गृह्य सङ्गृह्य पाठयति। अन्यत् आचिनोति च शास्त्रार्थान् आचार्ये स्थापयत्यपि, यथा शिष्यः तदनुतिष्ठति तथा सः निरीक्षणमपि करोति, तत्र साहाय्यमपि आचरति। कथं करोति? स्वयम् आचरन्, स्वयम् आचरते यस्मात्, तस्मात् आचार्य उच्यते। आचिनोति च शास्त्रार्थम् आचार्ये स्थापयेदपि, स्वयम् आचरते यस्मात्, तस्मात् आचार्य उच्यते इति श्लोकः अस्ति। तस्मात् केषाञ्चित् आचार्याणां मते इति चेत् के ते आचार्याः इति चेत्, वयं ते नानाशास्त्राणि अवलोक्य तत्र यदुत्तमं तत् ते चित्वा बोधयन्तस्सन्ति, एकं। द्वितीयं, ते स्वयम् अनुष्ठाय तस्य विषये विशिष्ट अनुभवात्मकं ज्ञानं प्राप्य ते उपदिशन्तस्सन्ति। तन्नाम आचार्याणां मतम् अत्यन्तम् आदरणीयं भवति, यतोहि ते केवलं तत्र वाग्जालरूपेण न विवृण्वन्ति, अपि तु ते अवश्यमेव तत्त्वम् अनुष्ठाय दृष्टवन्तः। अतः येषाम् आचार्याणां मते षट्कर्म नैव सम्मतम् याज्ञवल्क्यादीनाम् इति। पठं वा अग्रे अष्टात्रिंशत्तमश्लोकः। अथ गजकरणी उदरगतपदार्थम् उद्भवन्ति పవనమపానముదీర్య కంఠనాలే క్రమపరిచయ వశ్య నాడిచక్రా గజకరణీ నివద్యతే హఠజ్ఞై.
ఉదరగత పదార్థముద్వమంతి పవనమపానముదీర్య కంఠనాలే క్రమపరిచయ వశ్య నాడి చక్ర గజకరణీతి నిగద్యతే హఠజ్ఞై. ఉదరగత పదార్థం ఉద్వమంతి పవనం అపానం ఉదీర్య కంఠనాలే క్రమపరిచయ వశ్య నాడి చక్ర గజకరణి ఇతి నిగద్యతే హఠజ్ఞై.
షట్కర్మాణి ఉక్తాని ఇతోపి కించిత్ అన్యాపి కాచిదేకా క్రియా ఉచ్యతే. గజకరణి ఇత్యుచ్యతే, అర్థః కః న జ్ఞాయతే. తద్ వ్యాఖ్యాత్రాపి గజకరణి శబ్దస్య అర్థః న వివృతః. జ్యోత్స్నా వ్యాఖ్యాత వ్యాఖ్యాత్ర కంచిత్ సంప్రదాయం ఆగతః, కశ్చిద్ అర్థ విశేష స్యాదేవ, తస్య గవేషణం కరణీయం. పరంతు ఇయం క్రియా కా ఇతి చేత్, ఉదరగత పదార్థం ఉద్వమంతి, నమ ఉదరే యః పదార్థః అస్తి తస్య వమనం కుర్వంతి, ముఖాత్ బహిః నిస్సారయంతి, నమ ఉదరం మృక్తి కుర్వంతి ఇత్యర్థః. తత్ కథం కుర్వంతి? పవనం అపానం ఉదీర్య కంఠనాలే. అపానవాయుః అస్తి తత్ర, ఏవం ఏకైకస్య ప్రాణస్య స్థానమస్తి, తస్య హృది ప్రాణ గుదేపాన సమానో నాభిసంస్థిత ఉదాన కంఠదేశస్థ వ్యాన సర్వశరీరగ ఇది శ్లోక. ప్రాయ అమరకోశే విద్యతే ఇది భావయామి. ఇతరేషు యోగగ్రంథేషు అపి అయం శ్లోక పరిలక్ష్యతే. హృదయం స్థానం భవతి ప్రాణస్య, గుదస్థానం భవతి అపానస్య, సమాన నాభిసంస్థిత సమానవాయుః నాభౌ వ్యవస్థిత, ఉదాన కంఠదేశస్థ ఉదానవాయోః స్థానం కంఠదేశః, ధ్యాన సర్వశరీరకః సర్వేష్వపి శరీరావయవేషు వ్యాప్య విద్యమానః వ్యానః ఇతి. తత్ర విశిష్య శరీరాత్ మల నిస్సారణం అస్తి కిల, సా ప్రక్రియా తస్య దాయిత్వం అపానవాయోః. సః తాదృశ అపానవాయు విశిష్టయా యోగ ప్రక్రియయా కంఠనాలే ఆనేతవ్య, యః హుదస్థానీయః అపానవాయు విశేషః సః అపానవాయు కంఠనాల పర్యంతం ఆనేతవ్యః. తదా యదా ఏవం అపానవాయోః ఉపరి ఆనయనం క్రియతే తదా కిం భవతి ఇతి చేత్, తత్ర ఉదరస్థ ఉదరే యత్ భోజనమస్తి, యత్ భుక్తం అన్నం అస్తి, తత్ సర్వమపి తత్ర ముఖాత్ బహిః నిర్గచ్చతి. అనంతరం ఏషా గజకరణి కీదృశీ, నమ ఏషా క్రియా ఉక్త, అనయా క్రియయా కిం భవతి ఇది చేత్, క్రమ పరిచయ వశ్య నాడిచక్ర. ఏషా గజకరణి ప్రక్రియ కథం భవతి ఇది చేత్, ఝటితి న సిద్ధ్యతి, అహం వమనం కర్తుం ఇచ్ఛామి, నమ అపానవాయుం కంఠస్థానం ప్రతి ఆనీయ వమనం కర్తుం యదా ఇచ్ఛామి తా ప్రక్రియ ఝటితి న సిద్ధ్యతి. క్రమ పరిచయ వశ్య నాడిచక్ర, నమ తత్ర విశిష్య బహ్యః నాడ్యః ఉపనాడ్యః భవంతి, తత్ర విశిష్య శంఖినీతి కాచిన్ నాడీ భవతి, యద్వారా అపానః కంఠనాళం ప్రవిశతి, కంఠనాళం ప్రతి ఆగచ్చతి. శంఖినీ తద్ ఉపనాడ్యః ఏవ తత్ర నాడీచక్ర ఇది నాడీచక్ర శబ్దేన ఉచ్యంతే. తద్వారా అపానవాయుః కంఠనాళం ప్రతి ఆగచ్చతి. సా నమ తస్మిన్ తస్మిన్ నాడీచక్రె అథవా తస్మిన్ నాడీ సమూహే అపానస్య ప్రవేశన రూప ప్రక్రియ యయా వమనం సిద్ధ్యతి తా నమ సా ప్రక్రియ ఝటితి ఆత్మసాత్ కర్తుం న శక్యతే. క్రమతః ఏవ పరిచయ, నమ క్రమేణేవ సా క్రియా పరిచితా భవతి, నమ కథం సా క్రియా సమ్యక్ కరణీయా ఇతి, క్రమేణ నామ కాలక్రమేణ ఏవ అభ్యాసవశాత్ కాలక్రమేణేవ సహ నాడీ సమూహ శంఖిని तदुप उपनाडी संबद्ध नाड्यः याः भवन्ति तद् नाडीचक्रशब्देन उच्यन्ते तेषाम् अभ्यासवशादेव एवं संकल्पमात्रेण अपानवायोः शङ्खिनी तदुपनाडीद्वारा कण्ठनालं प्रति आनयनं शक्यते एवं यदा क्रियते तदा एव उदरस्थपदार्थानां बहिर्वमनमपि सिद्ध्यति एषा एव गजकरणी इति निगद्यते हठज्ञैः ये हठप्रक्रियां जानन्ति इमामेव क्रियां गजकरणी इति कथयन्ति इदानीम् अनिच्छया नाम उदरे समस्या अस्ति चेत् वयम् अनिच्छन्तोपि किं कुर्मः वमनकार्यं कुर्मः परन्तु स्वेच्छया वमनं करणीयम् इति चेत् सापि काचित् विशिष्टा क्रिया तदर्थम् अभ्यासः करणीयः इति अस्माभिः अत्र विवेचनीयं भवति अग्रे गच्छामः एकोनचत्वारिंशत्तमः श्लोकः ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः अभूवन्नन्तकभयात् तस्मात् पवनमभ्यसेत्
ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः अभूवन्नन्तकभयात् तस्मात् पवनमभ्यसेत् ब्रह्मादयः अपि त्रिदशाः पवनाभ्यासतत्पराः अभूवन् अन्तकभयात् तस्मात् पवनम् अभ्यसेत्
तत्र एतावता एवम् आरम्भे प्राणायामस्य आवश्यकताविषये उक्तम् अनन्तरं नाडीशोधनप्रक्रिया उक्ता तदनन्तरं षट्कर्मानुष्ठानविषये उक्तम् अधुना पुनः अग्रिमप्रकरणस्य आरम्भः करणीयः अग्रिमप्रकरणं किम् अष्टकुम्भकानां विषयः नाम अयमेव सारभूतः केन्द्रीयविषयः नाम केन्द्रबिन्दुः भवति अष्टकुम्भकानां विषयः यथा आसन अध्याये पञ्चदश आसनानि प्रमुखानि एवमेव अत्र अस्मिन् अध्याये नाम आत्मभूतं वस्तु नाम केन्द्रे विद्यमानं वस्तु अष्टकुम्भकविचारः तस्य कथनारम्भात् पूर्वमपि किञ्चित् प्राणायामस्य प्रशंसा क्रियते किमस्ति ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः अभूवन् ब्रह्मादिदेवाः अपि किं कृतवन्तः इति पवनाभ्यासतत्पराः देवाः इत्युक्ते त्रिदशाः इति शब्दस्य देवाः इत्यर्थः नाम त्रिदशाः इति शब्दस्य कथं देववाचकता इति चेत् येषां तृतीया यौवनाख्या दशा एव अस्ति ते त्रिदशाः इति तेषां बाल्यमपि नास्ति नाम वार्धक्यमपि नास्ति केवलं पञ्चविंशतिवर्षीयाः तन्नाम यौवनावस्था एव भवति देवानाम् इति अतः ते त्रिदशाः इति उच्यन्ते अतः एवं नानाव्याख्यानानि सन्ति जन्म सत्व विनाश एवं तिस्रः दशाः एव येषां ते त्रिदशाः इत्यपि नाम वृद्धिः परिणामः क्षयः इत्याद्याः अवस्थाः न भवन्ति कापि अस्ति त्रिदशशब्दस्य नाम व्युत्पत्तिः एवं नानाप्रकारेण त्रिदशशब्दस्य व्युत्पत्तिरुच्यते अतः देवः इत्यर्थः ब्रह्मदेवप्रभृति ये देवाः सन्ति तेऽपि पवनाभ्यासं कुर्वन्ति किमर्थम् अन्तकभयात् नाम ते अपि मरणभीत्या ते कुर्वन्ति इति चेत् पवनाभ्यासः यदि क्रियते तर्हि जरामरणादिकं निवारयितुं शक्यते तस्मात् जानन्तः ते इदं कुर्वन्ति यतः देवाः अपि कुर्वन्ति मर्त्याः वयमपि अवश्यं कुर्याम तस्मात् पवनमभ्यसे इति नाम रोल् मॉडल इति यदुच्यते देव कुर्वन्ति किमुत अस्माकम् अस्माभिस्तु अवश्यमेव कर्तव्यम् इति तात्पर्येण देवानाम् उदाहरणमत्र उक्तम् अग्रे चत्वारिंशत्तमः श्लोकः यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलं யாவத் திருஷ்டிர் ப்ருவோர் மத்யே தாவத் காலபயம் குதஹ.
யாவத் பத்தோ மருத்தேஹே யாவத் சித்தம் நிராகுலம் யாவத் திருஷ்டிர் ப்ருவோர் மத்யே தாவத் காலபயம் குதஹ. யாவத் பத்தஹ மருத் தேஹே யாவத் சித்தம் நிராகுலம் யாவத் திருஷ்டிஹி ப்ருவோஹ மத்யே தாவத் காலம் தாவத் காலபயம் குதஹ.
சம்யக் ஸ்பஷ்டமேவ அஸ்தி, சரளஹ ஏவ ஸ்லோகஹ. யாவத் பர்யந்தம் தேஹே ஏவ வாயுஹு பத்தஹ. மம அத்ர வ்யாக்யாதா கிம் கதயதி இதி சேத், சுவாசோச்சுவாச க்ரியா சூன்யஹ இதி. மருத் பிராணஹ தேஹே ஷரீரே பத்தஹ சுவாசோச்சுவாச க்ரியா சூன்யஹ இதி. யதி வயம் சுவாசோச்சுவாச க்ரியா சூன்யஹ தர்ஹி கதம் ஜீவேம? யாவத் சுவாசோச்சுவாச ப்ரக்ரியா தாவதேவ கலு ஜீவனம் இதி உச்சதே இதி சேத், யதா வாயுஹு சுஷும்னாக்யாம் நாடீம் ப்ரவிஷதி ததா சுவாசோச்சுவாச ப்ரக்ரியாம் அந்தரா அபி ஜீவனம் சித்யதி கர்த்தும் சக்யதே. நம்ம இடா பிங்கலையோர் மத்தியே சுவாசோச்சுவாச கமனாகமன ஏவ ஜீவனம் சூச்சயதி மர்த்தியானாம். ஏதாவத் யோகினஹ பவந்தி தே ஸ்வ சுவாசோச்சுவாச நம ஸ்வஸ்ய பிராணம் தே சுஷும்னாயாம் ப்ரவேசயிதும் சக்னுவந்தி. அத்த பத்தா பிராணா தேஹே குத்ர சுஷும்னாயாம் இத்யர்த்தஹ. யாவத் பர்யந்தம் சுஷும்னாயாம் வாயுஹு திஷ்டதி தாவத் காலபயம் குதஹ. காலபயம் ந பவதி, தீர்காயுஹு பவதி தஹ அனுஷ்டாத. கிஞ்ச யாவத் சித்தம் நிராகுலம் நாம யாவத் பர்யந்தம் சித்தம் அவிக்ஷிப்தம் ஏகாக்ரம் சேயே வஸ்துனி ந கேவலம் ஏகாகிரம் நிருத்தஞ்ச தத்ரைவ ஸ்திரம் அவிச்சலம் ஜேயாத்மகதாம் பிராப்ய திஷ்டதி தாவத் பர்யந்தம் காலபயம் குதஹ. காலபய கால காலாத் ந பேதவ்யம் இதி. நம யதா ஏவ பிராணஹ தேஹே பத்யதே ததா ஏவ கிம் பவதி சித்தம் நிராகுலம் பவதி. அத பரஸ்பரம் தத்ரபி சம்பந்தா அஸ்தி, காரியகாரண பாவஹ அஸ்தி. அனந்தரம் இதனிம் சித்தம் அவிக்ஷிப்தம் பவது நிருத்தம் பவது தத் குத்ர ஸ்தாபனீயம் விசிஷ்ய இதி சேத், யாவது திருஷ்டிஹி ப்ருவோர் மத்யே இதி. அத்ர திருஷ்டிஹி நாம ப்ருவோர் மத்யே வீக்ஷணம் கரணீயம் இதி நார்த்தஹ. அத்ர திருஷ்டி சப்தேன வ்யாக்யாதா கதயதி, திருஷ்டி சப்தேன அந்தஃகரண விருத்திஹி இதி. தத் மனஹ யச்ச நிராகுலம் தத் குத்ர பத்தவ்யம் இது சேத் ப்ருவோர் மத்யே தஸ்ய பந்தனம் கரணீயம். ப்ருவோர் மத்யே தத் கிம் ஸ்தானம் இது சேத் தத் ஆஜ்ஞா சக்கரம் இத்யுச்சதே. நம ஆஜ்ஞா சக்கரே ஷஷ்டம் தத் சக்கரம் தத உபரி சஹஸ்ராரமேவ. அத சஹஸ்ராரம் ப்ரவிஷதி சேத் அனந்தரம் மோக்ஷேவ. தஸ்ய தஸ்மாத் பூர்வதன ஸ்தானம் கிம் ஆஜ்ஞா சக்கரம். யாவத் பர்யந்தம் மனஹ தத்ர ஆஜ்ஞா சக்கரே திஷ்டதி ப்ரூவோர் மத்யே திஷ்டதி தாவத் பர்யந்தம் தேஹி தேஹே திஷ்டதி யோகி ஜீவதி சிரம் ஜீவதி இத்யர்த்தஹ. தஸ்மாத் ஏவம் க்ரியதே சேத் தஸ்மம் ஏதஸ்ய சர்வஸ்யாபி மூலே கிம் அஸ்தி. யதி ப்ரூவோர் மத்யே சித்தம் ஸ்தாபனீயம் ததப் பூர்வம் யதி சித்தம் நிராகுலம் அவிக்ஷிப்தம் கரணீயம் தச்ச யதா பிராணஹ சுஷும்னாம் ப்ரவிஷதி ததா ஏவ சித்யதி. கதாச பிராணஹ சுஷும்னாம் ப்ரவிஷதி யதா பிராணாயாமஹ க்ரியதே கில, ஏவம் பரஸ்பர சம்பந்தஹ த்ருஷ்யதே கில. யதா பிராணாயாமாப்யாசம் சம்யக் கரோதி ததா ஏவ தேஹே பிராணஹ பத்தஹ பவதி சுஷும்னாயாம் வாயுஹ ப்ரவிஷதி. யதா தத் சித்யதி ததா சித்தம் நிராகுலம் பவதி. யதா சித்தம் நிராகுலம் பவதி ததா ஏவ தத் ஆஜ்ஞா சக்ரே ப்ருவோர் மத்யே ஸ்தாபயிதும் சக்யதே. தேனைவ ஹி கால ஜயஹ சாத்யதே. அஸ்ய சர்வஸ்யாபி மூலே கிம் வர்த்ததே இதி சேத் பிராணாயாமாப்யாசஹ இதி. அஸ்மாத் பிராணாயாமாப்யாஸ கரணீயஹ இத்யத்ர தாத்பர்யம். அஸ்து. तदेव अग्रिमश्लोके स्पष्टीक्रियते विधिवत् प्राणसंयामैः नाडीचक्रे विशोधिते सुषुम्नावदनं भित्वा सुखाद् विशति मारुतः।
विधिवत् प्राणसंयामैः नाडीचक्रे विशोधिते सुषुम्ना वदनं भित्वा सुखाद् विशति मारुतः। विधिवत् प्राणसंयामैः नाडीचक्रे विशोधिते सुषुम्ना वदनं भित्वा सुखात् विशति मारुतः।
तो किं करणीयम्? प्राणसंयामैः नाडीचक्रे विशोधिते नानाविध प्राणायाम क्रियाभिः यदा नाडीचक्रस्य शोधनं क्रियते निर्मलत्वम् आपाद्यते तदपि कीदृशप्राणायामैः? विधिवत् कृतैः प्राणायामैः यथाशास्त्रं कृतैः यथेच्छं कृतैः इति न यथाशास्त्रं। शास्त्रे प्राणायामसमये किं किं करणीयम् इत्युक्तमस्ति? सम्यक् आसने जयः प्राप्तव्यः। अनन्तरं प्राणायामादीनाम् अभ्याससमये बन्धाः अनुष्ठातव्याः, जालन्धरबन्धः, उड्यानबन्धः, मूलबन्धः इत्येतत् सर्वमपि करणीयम्। किं पूरकान्ते रेचकादौ नानाविधबन्धाः अनुष्ठातव्याः, अतः बन्धपूर्वक शास्त्रपूर्वक आसनजयपूर्वक प्राणसंयामैः, तदेव विधिवत् प्राणसंयामैः इत्यस्य अर्थः। तथा प्राणसंयामः अथवा प्राणायामः प्राणनिग्रहः अनुष्ठीयते तदा नाडीचक्रं सर्वे नाडीगणाः विशोधिताः भवन्ति, परिष्कृताः भवन्ति। तदा किं भवति? नाडीचक्रे विशोधिते सुषुम्ना वदनं भित्वा, सुषुम्नायाः मुखं, सुषुम्नायाः प्रवेशद्वारं यदस्ति, यच्च मूलाधारचक्रे अस्ति, तत् वदनं तावत्पर्यन्तं मलैः पिहितं भवति। यदा विधिवत् प्राणसंयामः क्रियते तदा मलानां विशोधनं भवति। मलानां विशोधने कृते सुषुम्नावदनस्य भेदः, सुषुम्नावदनं तत्र भित्वा प्राणः सुखाद् विशति, सुखात् प्रविशति। कुत्र प्रविशति? सुषुम्नां प्रविशति। सुषुम्नाद्वारि एव नानामलाः सञ्चिताः, तेन कारणेन प्राणः तत्र प्रवेष्टुं नेष्टे, तत्र प्रवेष्टुं न शक्नोति। यदा विधिवत् प्राणसंयामैः तत्सर्वं निवार्यते अधुना सुषुम्ना मुखे प्रवेशः सुकरः इति। अग्रे गच्छामः। द्विचत्वारिंशत्तमः श्लोकः। मारुते मध्यसञ्चारे मनस्थैर्यं प्रजायते यो मनस्सु स्थिरीभावः दैवावस्थामनोन्मनी।
मारुते मध्यसञ्चारे मनस्थैर्यं प्रजायते यो मनस्सु स्थिरीभावः सैवावस्थामनोन्मनि। मारुते मध्यसञ्चारे मनस्थैर्यं प्रजायते यः मनस्सु स्थिरीभावः सा एव अवस्था मनोन्मनि।
भवतु, सुषुम्नावदनं भित्वा यदि मारुतः मध्यसञ्चारः भवति तर्हि तेन किम् इति प्रश्नः उद्भवति। यदा एवं भवति मारुते मध्यसञ्चारे, मध्यसञ्चारो नाम मध्यमनाडी सुषुम्ना इडापिङ्गलयोर्मध्ये वर्तमानत्वात् मध्यमनाडी सुषुम्ना इत्युच्यते। इयं नाडी, अस्यां नाड्यां यदि प्राणः प्रविशति तदा किं जायते? मनसः स्थैर्यं प्रजायते, मनस्थैर्यं प्रजायते, मनस्थैर्यम् आविर्भवति, विक्षिप्ततायाः निवारणं भवति। मनस्थैर्यम् इति शब्दस्य ध्येय आकारवृत्तिप्रवाहः जायते इति व्याख्यातारः कथयन्ति। ध्येयं यत्किञ्चित् अस्माभिः परिगृह्यते तदाकारतां मनः कदा भजते? यदा प्राणः सुषुम्ना नाड्यां प्रविष्टः तदा एव तत्सिध्यति। अन्यथा प्राणः विक्षिप्तः इति कृत्वा मनः अपि विक्षिप्तं, ध्येयवस्त्वाकारेण मनः परिणामं प्राप्तुं न न शक्नोति तस्मात् मारुते मध्यसञ्चारे मनस्थैर्यं प्रजायते यो मनस्सुस्थिरी भावः यः मनसः सुष्ठुस्थिरी भवनं सम्यक् सर्वात्मना विक्षेपराहित्येन यः मनसः स्थिरी भावः सा एव अवस्था मनोन्मनी इत्युच्यते मन उन्मनि उन्मनि मनोन्मनि इत्याद्याः अवस्थाः चतुर्थे उपदेशे उच्यन्ते अग्रे नाम समाध्यवस्था एव समाधिः एव तत्र उन्मनि मनोन्मनि इत्यादि शब्दैः हठशास्त्रे तत्र उच्यन्ते अतः यदा तत्सर्वं कदा साध्यम् इति चेत् यदा प्राणः सुषुम्नां प्रविशति अतः सुषुम्नाप्रवेशार्थं नानाविधप्राणायामादीनाम् अभ्यासः अवश्यं करणीयः यदि समाधिः इष्यते हठयोगात् राजयोगं गन्तुं यदि मनसि उत्साहः उत्कण्ठा अस्ति तर्हि किं करणीयं प्राणायामादीनाम् अभ्यासः करणीयः सुषुम्नायाञ्च प्राणः प्रवेशनीयः तदा एव हठयोगाद् राजयोगं प्रति गन्तुं शक्यते इति तात्पर्यम्
अत्र उन्मनी इति उच्यते किल सा एव चत्वारिंशत्तम श्लोके यावत् चित्तं निराकुलम् इति वाक्येन निर्दिश्यते वा
तत्र समाहितम् इत्येव तत्र यावच्चित्तं निराकुलम् अविक्षिप्तम् इत्येव विक्षेपशून्यम् इत्यर्थः निराकुलम् इत्यस्य भ्रुवोर्मध्ये प्राणस्य नाम मनसः स्थापनमस्ति किल सा मनोन्मनि इति वक्तुं शक्यते तदग्रिम अवस्था अस्ति किल सा अवस्था मनोन्मनि इति वक्तुं शक्यते अग्रे यतोहि विक्षेपशून्यता एका निरुद्धावस्था अपरा विक्षेपशून्यत्वं सम्पाद्य तदनन्तरं ध्येयाकारतया चित्तस्य परिणतिः सम्पादनीया नाम वैराग्य अनुष्ठानपुरस्सरम् इदं करणीयम् अभ्यासः करणीयः इत्यस्ति किल एवमेव विक्षेपाणां निवारणं कृत्वा अनन्तरं विक्षेपाणां निवारणेनैव मनः ध्येयाकारतां न प्राप्नोति इदानीं तत्र वेदान्तशास्त्रे किमुच्यते इति चेत् चैवाल अपसरणवत् इति इदानीं कश्चित् प्राचीनकाले इदम् आधुनिककाले न भवति कश्चित् देशसञ्चारे रतः अस्ति अत्यन्तं पिपासितः तत्र तडागमेकं पश्यति तडागे किं भवति शैवालावृतं भवति जलं शैवाल आवृतं भवति जलं शैवालशब्दस्य कः अर्थः आल्गे तत्र उपरि पासि इति वदामः तमिळ्भाषायां तत्र जलप्राप्त्यर्थं तेन किं करणीयं शैवाल अपसरणं केवलं करणीयं तेन हैड्रोजन् आक्सिजन् सर्वं योजनीयं नास्ति H2O उत्पादनीयं नास्ति तेन उपरितनशैवालस्य अपसरणं क्रियते चेदलं शुद्धं जलं तत्रैव अस्ति परन्तु मनसः संस्कारः तथा न भवति इति तत्तु आत्मनः विषये सत्यम् अहम् अनात्मा इति भावः निवार्यते चेत् आत्मत्वं स्वयं तत्र प्रतिभाति किन्तु अधुना वयं मनस्संस्कारस्तरे स्मः आत्मस्तरपर्यन्तं न गतवन्तः अतः अत्र मनसः विक्षेपनिवारणं करणीयं तदनन्तरम् इदानीं कश्चित् शिशुः रोदिति सः भोजनीयः किं करणीयं प्रथमं रोदनस्य शमनं करणीयम् अनन्तरं सः भोजयितव्यः यदा शान्तः भवति शिशुः किञ्चित् प्रलोभनादिकं कृत्वा क्रीडां दर्शयित्वा कथाम् उक्त्वा गीतं गीत्वा तस्य रोदनं स्थगनीयम् तद् निराकुलत्वं तदनन्तरं भोजनीयः शिशुः तद् उन्मन्यवस्था प्राप्तिः एवं तत्र परस्परसम्बन्धः अग्रे गच्छामः अतः त्रिचत्वारिंशत्तमं श्लोकं पश्यामः तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति कुम्भकान् विचित्रकुम्भकाभ्यासात् विचित्रां सिद्धिमाप्नुयात्।
तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति कुम्भकान् विचित्रकुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात्। तत्सिद्धये विधानज्ञाः चित्रान् कुर्वन्ति कुम्भकान् विचित्रकुम्भकाभ्यासात् विचित्रां सिद्धिम् आप्नुयात्।
ओके, सर्वत्र विचित्रता अस्ति। किमस्ति इदानीं, किं करणीयम्? प्राणस्य सुषुम्नाद्वारे प्रवेशः करणीयः। तदर्थं किं कुर्वन्ति? तत्सिद्धये, तत्सिद्धिः नाम प्राणस्य सुषुम्ना प्रवेशसिद्धिः। किं करणीयम्? विधानज्ञाः, विधानं नाम परिपाटि, परिपाटिशब्दस्य क्रमः, सिस्टम्, प्रक्रिया, प्रक्रियाज्ञाः ये प्रक्रियां जानन्ति, विधानं जानन्ति, इति कर्तव्यतां जानन्ति, कथं करणीयम् इति जानन्ति, ते विधानज्ञाः किं कुर्वन्ति? चित्रान् कुर्वन्ति कुम्भकान्, नानाप्रकारान् कुम्भकान् कुर्वन्ति। कुम्भकान् नाम प्राणायामान् कुर्वन्ति। भवतु, विचित्रकुम्भकाभ्यासात् विचित्रां सिद्धिम् आप्नुयात्। नानाप्रकारक एकप्रकारकः कुम्भकः न, नानसूर्यभेदनम्, उज्जायी, सीत्कारी, शीतली, भस्त्रिका, भ्रामरी, प्लाविनी, मूर्छा इत्येवं विचित्राः कुम्भकाः सन्ति। तेषां विचित्राणां कुम्भकानाम् अनुष्ठानात् किमुद्दिश्य एतेषाम् अनुष्ठानं कृतं क्रियते?
सुषुम्नायां प्राणस्य प्रवेशार्थं।
परन्तु किं वदति? विचित्रां सिद्धिमाप्नुयात् इति, तत्तु मुख्योद्देश्यं। तत्र गमनमार्गे नाना अणिमादिसिद्धयः अपि प्राप्यन्ते, ताः एव विचित्रां सिद्धिम् आप्नुयात्। बै प्रोडक्ट् तत्सिद्धये इति आरब्धं, सुषुम्नायां प्राणप्रवेशसिद्धये इमे विचित्रकुम्भकाः कर्तव्याः। परन्तु यदा क्रियन्ते ते विचित्रकुम्भकाः, तेन समं मुख्योद्देश्यसिद्धे सिद्ध्या समं विचित्र अणिमादिसिद्धीनामपि उपलब्धिः भवति। सकृदनुष्ठानेन न सिद्ध्यति, दीर्घकाल नैरन्तर्य तत्कारासेवितो दृढभूमिः इति उक्तं, तत् सर्वत्र स्मर्तव्यम्। शास्त्रे अन्योपि नियमः अस्ति, सकृत्कृते कृतः शास्त्रार्थः इति, पूर्वमपि मया कदाचित् उक्तं स्यात्। अतः एकवारम् अहं सूर्यभेदनं करोमि, किमर्थं मम अणिमादिसिद्धयः नागताः इति न प्रष्टव्यम्। यतोहि किं तत्र सदाशिवब्रह्मेन्द्राणां व्याख्याने अस्ति, योगसुधाकरव्याख्याने अस्ति, पूर्वमपि कदाचित् मया उदाहृतं स्यात्। किमस्ति तत्र? चतुरो वेदान् अध्येतुं गतस्य मानवकस्य अद्य पञ्चमं दिनम्, इतोपि नायातः इति मूढपुरुषस्य चिन्तनं भवति किल। तद् तस्य एतदेव उदाहरणं ते दीर्घकालनैरन्तर्यसूत्रे ते उदाहरन्ति, विवृण्वन्ति। चतुर्षु दिनेषु चत्वारः वेदाः समापयितुं शक्याः, अद्य पञ्चमं दिनमपि गतं, किमर्थम् इतोपि मम पुत्रः न प्रत्यागतः इति यदि कश्चित् चिन्तयेत्, तद्वद् भवति। एकदा सकृत् प्राणायाम आसनादीनाम् अनुष्ठानं कृत्वा झटिति फलनिरीक्षा इति। अतः विचित्रकुम्भकाभ्यासा विचित्रां सिद्धिम् आप्नुयात् विचित्रेण प्रयत्नेन इत्यपि योजने। विचित्रप्रयत्नो नाम दीर्घकालनैरन्तर्यसत्कारादि विचित्रप्रयत्नेन इति, तदा इदं सिद्ध्यति। अत्र स्थगयामः। श्री आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या, विभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छोरधिरोहिणी वा।